ॐ तच्छयो राब्रुणीमहे गातं यज्ञाय गातं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षत्सहस्रपात् स भूमिं विच्युतो वृत्त्वा अत्यधिष्ठद्दशाङ्गुलं पुरुष एवेदगं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहते एतावानस्य महिमा अतोज्यायागुच्य पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादत्यामृतं दिवे त्रिपादोर्ध्व उदैर्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमधो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अत्यासीदाज्यम् ग्रीष्मयित्मच्छरद्धभिः सप्तात्यासन्परिधयः त्रिसप्तसमिदकृताः देवा यद्यज्ञं तन्वानाः अपध्नन् पुरुषं पशुं तञ्यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यारुषयच्च ये तत्माद्यज्ञाः सर्वहुदः सम्भृतं वृषदाज्यं पशुगुस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञाः सर्वहुदः रुचः सामानि जज्ञिरे छन्दागंसि जज्ञिरे तस्मात् यजुत्तस्मादजायत तस्मादच्वा अजायन्त ये केचो भयातदः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं व्यदधुः कतिथा व्यकल्पयन् मुखं किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरूतदस्य यद्वैश्यः पद्भ्यागं शूद्रो अजायत चन्द्रमा मनसोज्जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणात् वायुरजायत नाभ्या आसीदन्तरिक्षं शीर्ष्णौद्यौ समवर्तत पद्भ्यां भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदात्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च दस्रः तमेवं विद्वानमृतयिक भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकं महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्यत्सम्भूतपृथिव्यैरसाच्च विच्चकर्मणत्समवर्तताधि तस्य त्वष्टा विततद्रूपमेते तत्पुरुषस्य विच्चमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् तमेवं विद्वानमृतगिक भवति नान्यपन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनां पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असन्वशे प्रीच्यते लक्ष्मीच्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टं मनिषाणाम् अमुं मनिषाणाम् सर्वं मनिषाणाम् तच्छय्योरावृणीमहे गातुं ज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अत्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः।